अविष्ट्रेण ध्वमागमदध्वर्युर्वानते पुनः विद्वानस्य प्रशासनम् निदिग्ममभ्या अंसंसीदद्धो रामनावधि तुषारो अस्य सख्यम् अन्तरिच्छन्दितम् जने रुद्रम् परो मनीषया लभ्यन्ति जिह्वजा ससम् याम्यादीतपेतनुर्वजोधारुहध्वनम् ऋषदम् जिह्वजावधी चरन् वत्सोऽषन् निरयीदातारम् न विन्दते वेदिस्तोदव अम्यम् उदोऽन्नस्यजन् महदश्वाभद्योजनम् बृहत् दामारथस्य ददृशे दुहन्ति सप्तैकामपद्वा पञ्च सृजतः तीर्थे सिन्धोरधिस्वरे आदशभिर्विवस्वदयन्द्रः कोशमजुच्यवीत् खेदजात्रिवृता दिवः परित्रिधातोरध्वरम् जोर्निरेति न वीयसि मध्वाहोदारो अञ्जते सिञ्जन्ति नमसा पदमुच्चाचक्रम् परिज्ञानम् नीचेन भारमक्षीतम् अभ्यारमिद्रजो निषिक्तम् पुष्करे मधु अपदस्य विसर्जने गाममुपावतावतम् महीयज्ञस्य रप्सुदा उभाकर्णा हिरण्यजा सुते सिञ्चदसृजम् रोदस्योरभिश्रियम् रसादधीतवृषभम् तेजानदस्वमोक्त्या हंसम् वत्सासो न मातृभिः निशो न सन्तजामिभिः उपस्रग्वेषु वत्सदः कृण्वते धरुणम् दिवि इन्द्रे अज्ञानमस्वाः अनुक्षद्विप्युषीमिषमोर्जम् सप्तपदी मरिः सूर्यस्य सप्तरश्मिभिः सोमस्य मित्रावरुणोदीतासूरादे तदासूरस्य भेषजम् उतोऽन्नस्य यत्पदम् हर्यतस्य निधान्यम् परिद्याम् जिह्वजातनत्